ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సీద సాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్ వాజినీవతీ ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాత ఇషు శివతమా శివం బభూవతే ధనుః. శివాశరవ్యాయాతవతయానో రుద్రమృడయా. యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ. తయానస్తను వాశంతమయా గిరిశంతాభి చాకశీ. యామిషుం గిరిశం దహస్తే బిభర్ష్యస్తవే. శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్. శివేన వచసా త్వా గిరిశాచ్ఛా వదామసి. యథా నః సర్వమిజ్జగదయక్ష్మగుం సుమనా అసత్. అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్. అహీగశ్చ సర్వాంజం భయం సర్వాశ్చ యాతు ధాన్యః. అసౌ యస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః. యే చేమాగుం రుద్రా అభితో దిక్షశ్రుతా సహస్రశో వైశాగుం హేడ ఈమహే. అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః. ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః. ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే. అథో యే అస్య సత్వానోహం తేభ్యో కరన్నమః. ప్రముంచ ధన్వనస్త్వముభయోరాత్మియోర్జ్యాం. యాశ్చ దేహస్త ఇషవ పరాతా భగవో వప. అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు దే. నిశీర్య శల్యాణా ముఖా శివో నః సుమనాభవ. విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత. అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః. యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా. నమస్తే అస్త్వాయుధాయానాదతాయ తృష్ణవే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అతోయ ఇషుదిస్తవారే అస్మన్నిదేహితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే. నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం पतये नमो नमः सस्मिन् जराय त्विषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय दताविने क्षेत्राणाम् पतये नमो नमः सूताया हन्त्यायवनानाम् पतये नमो नमो रोहितायस्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः समानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरव्यप्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम स्तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्ति भ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् हरिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्राधेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपतेभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो रतकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नम श्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नम शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नम कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो केशाय च शिपिभिष्ठाय च नमो मीनुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्माय च नमो जगन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शोराय चावबिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो वृष्णवे च प्रमशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्वक्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्त्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयराय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नम ऊर्व्याय च सोर्व्याय च नम पण्याय च पर्णशद्याय च नमो पगुलमानाय च विघ्नते च नम आख्यदते च प्रख्यदते च नमो वक्किलिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धदस्पते दरिद्र नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्च नाम मत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रमरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योऽस्यमनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तन ये मान आयुषि मानो घोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्न उदपोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अरि च देव ब्रूह्यदा च नः शर्म यच्च द्विबर्हाः सुहिश्वतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीडुस्तोकाय तनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन् निदाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदागहि विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहोस्तव हेतयः तासामीशानो भगव पराशीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अरिभूम्या तेषागुम् सहस्रयो जनेव धन्वानि धन्मसि अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकाश कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पदाम् पदिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति शिकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे ఏషాగుం సహస్రయోజనే వధన్వాని తన్మసి. నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణా దశ ప్రదేచేర్దశో దేచేర్దశో ద్వాస్తేభ్యో నమస్తే నో మృణయంతు తేయం ద్విష్మో యశ్చ నో ద్వేషితం భోజం వేదదామి. త్రయంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాన్ మృత్యోర్ముక్షీయమామృతాత్. యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వ భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు. ఏతే సహస్రమయుతం పాశా మృత్యోర్మర్త్యాయంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే. నృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః. తేనాన్నేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి. తమశ్చుయస్వ శుశ్వదన్వాయో విశ్వస్య క్షయతి వేషజస్య. యక్ష్వా మహేశో మనసాయ రుద్రం నమో భిర్దేవమసురం దువస్య. అయం మే హస్తో భగవానయం మే భగవత్తరః. అయం మే విశ్వభేషజోయగు శివాభిమర్శనః. ఓం శాంతి శాంతి శాంతి. ఓం అగ్నా విష్ణు సజోషసేమావర్ధంతు వాంగిరః. జుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మాయుశ్చ మే జరా చ మాత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మే గాని చ మే స్థాని చ మే పరుగుంషి చ మే శరీరాణి చ మే జైష్ఠ్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మే భశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే వర్ష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే షం చ మే మయశ్చ మే ప్రియం చ మే నుకామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे स्वपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च म औद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिगताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म हेमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च महोपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ म आधवनीयश्च म आग्नेयेर्धं च मे हविर्धारं च मे गृहाश्च मे सजश्च मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दृतिश्च मे दृतिश्च मे द्यौश्च मे चक्वरिरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वितीयवाच्य मे द्वितीयोहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्योहे च मे पष्टवाच्य मे पष्टौहे च मुक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे क्षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टा चत्वारिगुंशच्च मे वाजश्च प्रसवश्च विजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नीयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि सगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्यो रावृणीमहे गातुं यज्ञाय దాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షంచతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీర్షా పురుషః సహస్రాక్ష సహస్రపాద్ స భూమిం విశ్వతో వృత్వా అత్యదిష్టద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉదామృతత్వస్యేషానః యదన్నేనాతిలోహతి ఏతావానస్య మహిమా అథో జ్యాయాగశ్చ పూరుషః పాదోస్య విశ్వాభూతాని త్రిపాదస్యామృతం దివి త్రిపాదోర్ధ్వముదైత్పురుషః పాదోస్యేహా భవాత్పునః తతో విశ్వం వ్యక్రామత్ శాసనానశనే అభి తస్మాద్విరాడ జాయత విరాజో అధిపురుషః స జాతో అత్యరిచ్యత పశ్చాద్భూమిమతో పురః యత్పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మయుద్మ శరద్ధవిః సప్తాస్యాసన్ పరిదయః త్రిసప్త సమిదకృతాః దేవా యజ్ఞయజ్ఞంతన్వానాః అబధ్యన్ పురుషం పశుం తం యజ్ఞం బర్హిషి ప్రోక్షన్ పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యార్షయశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః సంభృతం వృషదాజ్యం పశుగుస్తాగుశ్చక్రే వాయవ్యాన ఆరణ్యాన్ గ్రామ్యాశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః రచ సామాని జగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేచో భయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్పురుషం వ్యదదుః కథితా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహూ కా ఊరు పాదావచ్చేతే బ్రాహ్మణోస్య ముఖమాసీద్ బాహూరాజన్యకృతః ఊరు తదస్య యద్వైశ్యః పద్భ్యాగుం శూద్రో అజాయత చంద్రమా మనసో జాతః చక్షో సూర్యో అజాయత ముఖాదింద్రస్యాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యా ఆసీదంతరిక్షం శీర్ష్ణోద్యౌ సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాస్తే ధాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రదిశశ్చ దస్రః తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ हनाकं महिमानस्य जन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्चते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः क्रिमीणागुम् राजा अप्येषागस्तपतिर्हतः अथो माता तो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्रसे ॐ शान्ति शान्ति शान्तिः ॐ आतो न इन्द्र क्षुमन्तम् चित्रम् रावम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विपूर्णिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः न हित्वा शूरदेवानमर्ता सोधित्सन्दम् भीमम् नगामारयन्ते ये तोण्डिन्द्रम् तवामेशानम् वस्वस्वराजम् नराधसामद्धिषण्णः प्रस्तो शतुपगादिसहस्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाक् उपक्रमस्वाभरधृषदादृष्णो जनानाम् अधा शोष्टरस्य वेदः इन्द्रयवुनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् सनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वचन्द्राः वशैश्च मक्षो जरन्ते गणानां त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन् नोतिभिः सीदसादनम् निषुषेद गणपते गणेषु त्वामा पुर्वे प्रथमम् कवीणाम् न ऋते त्वक्रियते किञ्च नारे महामर्कम् मघवञ्चित्रमर्च अभिज्ञानो मघवन्नाधमानान् सखे बोधिवसुपते सखीनाम् रणम् कृधिरणकृच्छत्य सुष्मा भक्ते चिदाभजाराये अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुप्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवच्चसायाभिषिञ्चामि देवस्य त्वा सवितुप्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् सरस्वत्यैर्भैषज्येन वीर्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुप्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुप्रसवे श्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यागुम् सरस्वत्यै वाजो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते स्व साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान्देव यज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविषास्ते तदस्यात्तदुद्यात् तदस्मै देवादासन्ताम् द्रुपदादिवेन मुमुचानः सिन्नस्नाद्विमलादिव ओतम् पवित्रेणेवाज्यम् आपश्युन्दन्तु मैनसः भोर्भुवत्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शांति 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 ॐ ईशावास्यमिदगुं सर्वं यत्किंच जगत्यां जगत् तेन त्यक्तेन भुञ्जीता मार्गधक्कस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषे क्षतगुं समाः एवं त्वयि नान्यथेतोऽसि न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसा वृताः तागस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः अले जलेकं मनसो जवेयो नैन देवा आप्नुवन् पूर्वमर्षत् तद्दावतो ज्ञानते तिष्ठत्तस्मिन् नभो मातरिष्वा दधाति तदे जदि तन्ने जदि तद्दूरे तद्वन्ति चेत् तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवा भूद्विजानतः तत्र को मोहक शोक एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमव्रणमस्ता विलगुम् शुद्धमपापविद्धम् कविर्मनीषी परिभोः स्वयम्भूर्या तथ्यतोर्तान् व्यदधाश्चाश्वतेभ्यः समाभ्यः अन्धम् तमप्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्यायाम्रताः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुमधीराणाम् येनस्तत्ति च चक्षिरे विद्याम् च विद्याम् च यस्तद्वेदो भयगुंसः अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् तमप्रविशन्ति ये सम्भूरिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् इति शुश्रुमधीराणाम् येनस्तत्वि च चक्षिरे सम्भोतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भोत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापिहितम् मुखम् तत्त्वम् पोषन्न पावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षेयमसूर्यप्राजापत्यव्योह रश्मिः समोह तेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमभेदम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्ने नयसुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोद्यस्मज्जुहुरानमे नो भूयिष्ठान्ते नम उक्तिम् विधेम। ॐ पूर्णमद पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमालाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। ॐ धाता पुरस्ताद्यमुदा जहारा शक्रप्रविद्वान् प्रतिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्ता अयनाय विद्यते सहस्रशीरुषम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमा नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायण परः नारायण परम् ब्रह्म तत्त्वम् नारायण परः नारायण परो ध्याता ध्यानम् नारायण परः यद्यकिञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्तम् विश्वशम्भुवम् पद्मकोश प्रतीकाशगुम् हृदयम् चाप्यधोमुखम् अधो निश्चावितस्यान्ते नाभ्यामुपरितिष्ठते ज्वालमालाकुलम् वाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् भक्त्या कोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः तिर्यगोर्ध्वमदशाहिरश्वयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अनियोद्वा व्यवस्थितः नीलतो यदमध्यस्था विद्युल्लेखे वभास्वरा नीवारशोकवत्तन्विपीताः स्वत्यनुपमा तस्याशिकाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मस्त शिवस्त हरिश्चेन्द्र सोऽक्षर परमस्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्ण पिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् राजादिराजाय प्रसंयताहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु। ॐ शान्तिः। शांति शांति शांति।